प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजं भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमेडे प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजं भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमेडे
सर्पजालं महाकालतालं गणेशाधिपालं जडाजूटगङ्गोत्तरङ्गैर्विशिष्यं
शिवं शङ्करं शम्भुमीशानमेडे मुदामाकरं मण्डलं मण्डयन्तं महामण्डलं भस्मभूषाधरं त्वम् परादिं ह्यपारं महामोहमारं शिवं शङ्करं शम्भुनीशानमेडे
वटाधो निवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशं गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भुमीशानमेडे
गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्निगेहम् परब्रह्म ब्रह्मादिभिर्वन्द्यमानं
शिवं शङ्करं शम्भुमीशानमेडे
कपालं त्रिशूलं कराभ्यां ददानं पदां भोजनं राय कामं ददानं बलिवर्दयानं सुरानां प्रधानं
शिवं शङ्करं शम्भुमीशानमेडे
शरच्चन्द्रगात्रं गुणानन्दपात्रं त्रिनेत्रं पवित्रं गणेशस्य मित्रम् कपर्णाकणत्रं चरित्रं विचित्रं
शिवं शङ्करं शम्भुमीशानमेडे
हरं सर्पहारं चिताभू हारं भवं वेदसारं सदा निर्विकारं श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भुमीशानमेडे
स्तवं यः प्रभाते नरशूलपाणे पतेत् सर्वदा भर्गभावानुरक्तः सपुत्रं सुजानं सुमित्रं कळत्रं विचित्रैः समाराध्य मोक्षं प्रयाति शम्भो महादेव शम्भो स्वयंभो शम्भो महादेव शम्भो स्वयंभो शम्भो महादेव शम्भो स्वयंभो शम्भो महादेव शम्भो स्वयंभो शम्भो महादेव शम्भो शम्भो महा
महादेव शंभो, शंभो महादेव शंभो।